सज्जनः पञ्चमुखविराट हनुमान रेखकं त्रिम्बीजं श्रीशक्तिः क्रोङ्किल्कं क्रुङ्कवचं त्रयस्थाय फट् इति दिग्बन्धः श्रीगरुड उवाच। वेदाय उधर्वमुखाय हरिहिताय सकल नमः।